ప్రవేశ సిద్ధాంతకరణే ద్వితీయ పాఠ ఆగస్ట్ మాస ఏకవింశ దినాంక ఏనాక్షరకమాం నాయం అధిగమ్యమహేశ్వరా కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః వాక్యకారం వరరుచిం భాష్యకారం పదం యదు పాణినిం సూత్రకారం తత్ప్రణతోస్తు మునిత్రయం మునిత్రయం నమస్కృత్య తదుక్తీశ్వరిహాస్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే. ह्यः हकारान्ताः वकारान्ताः रेफान्ताः च शब्दाः अधीताः. अग्रे पठामः वकारान्ताः स्त्रीलिङ्गाः. वकारान्तस्त्रीलिङ्गः किं शब्दः? किं शब्दस्य सर्वनामसंज्ञा अस्ति. पुल्लिङ्गे कः कौखे इत्यादिना रूपाणि भवन्ति. किमः कादेशे ताप् किं शब्दात् विभक्तौ परतः वेन् द वर्ड् किम् इस् फालोड् बै एनि विभक्ति प्रत्यय. किमः कः इति सूत्रेण किम् इत्यस्य स्थाने क इति आदेशः भवति. पुल्लिङ्गे अपि एवमेव. अत एव कः कौके क इति अकारान्तशब्दवत् रूपाणि भवन्ति. अत्रापि क इति आदेशः भवति. शरादीनामः इत्यनेन अकारे अन्तादेशे प्राप्ते तदपवादत्वेन किं शब्दस्य कः क इति सर्वादेशत्वेन भवति. अनेकाल्पात् सर्वादेशः क स कादेशे टाप् इति उच्यते. कादेशे कृते इदानीम् अकारान्तत्वम् अस्ति, अदन्तत्वं ह्रस्वकारान्तत्वं. ह्रस्वकारान्तानां शब्दानां त्रित्वे द्योत्ये टाप् इति प्रत्ययः भवति. टाप् इस् अ त्री प्रत्यय विच् इस् एडेड् टु वर्ड्स् विच् आर् एण्डिङ्ग् इन् ह्रस्वकार. सो नौ वन्स् वी डू द कादेश, since the ka ends with hrasvakara, so we have to add this three pratyaya called tap. Adat jata shtap iti sutrena ka ityasmati tap pratyaya bhavati. Ka a tap ityatra pakaraha itsamyataha pakaroti itsamyataha. So we will see the prakriya in the next three pratyaya prakriya. So now ka and a అకత్సవర్ణ దీర్ఘ ఇత్యనేన సవర్ణదీర్ఘే కృతే కా ఇది రూపం జాతి. సో దీస్ స్టెప్స్ ఆర్ కామన్ టు ఆల్ విభక్తి. ఇట్ ఇస్ నాట్ జస్ట్ ప్రత్యయ, ఇట్ ఇస్ ఫాలోడ్ బై ఎనీ విభక్తి ప్రత్యయ. యు హావ్ కాదేశ ఫాలోడ్ బై టాప్ అండ్ సవర్ణ దీర్ఘ. సో ద వర్డ్ ఇఫెక్టివ్లీ బికమ్స్ ఆకారాంత. అండ్ సో ద ఫార్మ్స్ వుడ్ గో లైక్ ఎనీ ఆకారాంత సర్వనామ శబ్ద. ఇట్ ఈస్ లైక్ సర్వ. ఇత్యనేన సుప్రత్యయస్య లోపే కా ఇది రూపం. కా హే కాహ కాం హే కాహ ఇత్యాది సర్వావత్. సో లైక్ ఎనీ అదర్ ఆకారాంత సర్వనామ శబ్ద. ఈవెన్ దో ద వర్డ్ వాజ్ ఒరిజినలీ మకారాంత, ఆఫ్టర్ ఇడు కాదేశ ఇట్ టర్న్స్ అవుట్ టు బి లైక్ ఎన్ ఆకారాంత వర్డ్. సర్వా శబ్దవత్ రూపాణి భవతి. అపరం సర్వనామ అస్తి ఇదం మకారాంతః స్త్రీలింగః ఇదం శబ్దః. పుల్లింగే అయం ఇమౌ ఇమే ఇత్యాది రూపాణి, స్త్రీలింగే తు ఇయం ఇమే ఇమాః ఇత్యాది రూపాణి సాధనీయాని. इदं शब्दात् सुप्रत्यये यः सौ इति सूत्रं पदद्वयमस्ति. यः सौ सुप्रत्यये पदे इदमो मह इति सूत्रात् इदमः इति अनुवर्तते. दश्च इति सूत्रात् दः इति अनुवर्तते. इदमः दः यः in the idam shabda or for the idam shabda, daha, dakara is replaced by yakara, then followed by supratyaya. Idamo dasya yaha syat, so supratyaya pare, idam shabda se yaha dakara ha, tasya sthane yakara adesha bhavati, it is supratyaya. Iyam su, it is atam. Now, Yadadina Maha, it is Atre Prapte. Actually, since Idam is also belongs to Yadadi. Yadu Tadu, Yadu, Ekadu, Idam Adas Eka, Ji. Yadadi Shantar Bhavati, Ityataha, Atvam Prapnohi, Hintu, Idamo Maha, it is Supramasti. Pulling Epi Adhikam. Suprate Pare, Idamaha, Maha, Makaraha Antadesha Bhavati. To prevent the atva by Yadadi, the makara is, so even though the word already contains a makara, then he gives another makara, the adesha, to overrule Yadadi namaha. So the mu is replaced by mu. It means it will not change to akara. So you have yam, su, kalyam, thori, dhar, sukhisthakam, bhale, etzelena, sukhatyasyanoke, yam, iti, prathamaikasane, rupam. Sevadyatvam tap dasya gumaha dvivacane rupanishpadanam katham idam au sevadina maha vibhaktau paramaha supratyaye pare idamo maha isyanena badhyate sanyasi vibhaktishu yadadina maha isyanena makarasya sthane akaraha antadeshaha ida a au iti jatam ato gude isyanena pararupe dakarat parasya akarasya punaha akarasya pararupe isyate ida au yani ida iti prasva akarantam Sasvakaran Sasvate Adadjata Stav Isjanena Stav Pratyaha Ida A Au Akasvarane Dithaha Isjanena Savarna Dithhe Ida Au Idani Dashta Ida Maha Dakara Sthane Makaraha Adeshaha Bhavati अतः इमा औ जातम् इदानीं सच स्टिल हियर अगेन आर कॉमन स्टिल अकस्मरणे दीर्घः आर कॉमन टू ऑल विभक्तिस एक्सेप्ट अन्यासु सर्वासु विभक्तिषु अत्वं भवति साप्तत्यः भवति सो आफ्टर दिस द फॉर्म्स विल चेंज Sadani Iva Au Ityasti. Agre Kim Bhave. Kim Karyam. Ime Ikhidupam Sadhaniyam. Always, I mean, as you progress through the Shabda Prakarna, it is useful to remember the forms of the words. So if you have the form, you'll generally get an idea of what is to be done. Now, yam, ime, imaha, iti rupani. So the next form is ime, dvivacane, ime, iti rupam sadhaniyam. Vasudha. हाँ हाँ सत्य कृतम दस्य इतने दकार से स्थाने मकार आदेश हाँ सत्य हाँ आऊँगा आप हाँ इतने ना आऊँगा रसे स्थाने शी आदेश हाँ फिर दे एम सर्वनाम सो ऑलवेज रिमेम्बर दैट इदम इज सर्वनाम शब्द So for Sarvanama, just like you have Sarve, Sarva, Sarve, Sarvaha, you have Ime. So Aunga Apaha Atvelena, Abandat Parasya Aunga. Need not even be a Sarvanama. This Karya at least is common for all Abanta. Need not be a Sarvanama. Does not differ between a Sarvanama and the general word. Rama, Rame, Ramaha. So Abantat Parasya Aunga, She Pyar. Aungaha shi ityadeshaha ima ee ityasthi aad gunaha ityanena gune krate ime ity rupam yam ime. The next one idam jas pratyaha sadadina maha ityanena atvam pararupam ta sarladirhaha. These are all common. Ida as ityasthi. Tirani punaha atrapi dashta ityanena akarasthane makaradeshaha. Ima as ityasthi. Agre. प्रथमयोः पूर्वसवर्णः इति भवति वा? Exactly. So, you cannot do prathamayoh purva savarnaha because there is a nishedha. Dirghat jati itita pare purva savarna dirghaha nasya. So, the sutra should be akat savarne dirghaha. Ityanena savarna dirghaha. Imas iti bhavati. Rutve visarge krate imaha iti rupam. So, for those who are in the habit of reading the Balamanorama, atra imaha atra Balamanoramayam prathamayo purvasavarnaha purvasavarnadirghaha iti dattamasti. Okay, so just to mention that do not follow vyakhyana blindly, especially the Balamanorama. It is a very good vyakhyana for beginners, but there are some which you can notice some cases where the author has slipped on points like this. Say, in imaha, he says prathamayoh purvasavarnaha, or he says purvasavarnadirghaha. So, you should always be a bit conscious when operating. Okay? So, imas ityatra purvasavarnadirghaha na bhavati akasavarnadirghaha ityanena savarnadirghaha imaha iti rupam. Imam atrapi jadajyatvam tap matvam. मकारादेशः इमाम् इति भवति अमिपूर्वः इत्यनेन पूर्वरूपे इमाम् इति रूपम् इमाम् इमे षष्प्रत्यये परतः तु प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः भवितुमर्हति तदानु इमा शस्त्रत्यये परे प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः. इफ् यु सा इवन् इन् रमा शब्दे अपि तथैव जस्प्रत्यये परे अतस्वर्णे दीर्घः इत्यनेन सवर्णदीर्घः. शस्त्रत्यये परे तु प्रथमयोः पूर्वसवर्णः इत्यनेन. यद्यपि रमाशब्दे भेदः न दृश्यते तथापि गौरी शब्दे तु अस्य भेदः. जस्प्रत्यये परे अणादेशः गौर्यः इति रूपम्. शस्प्रत्यये तु पूर्वसवर्णदीर्घः गौरीः इति रूपम्. रमाशब्दे रूपभेदः न भवति पूर्वसवर्णदीर्घे कृते वा सवर्णदीर्घे कृते वा, किन्तु अन्येषु शब्देषु भेदः भवति, अतः सर्वदा स्मर्तव्यम्. अस्तु, इमाम् इमे इमाः अग्रे इदा आ इत्यस्ति इदा इति पर्यन्तं समानं तदाद्यत्वं हाफ्च इदानीं किं भवति इदा आ Everybody remembers from idam shabda pullinga kim bhavati very simply अनाप्यकः इत्यनेन अनादेशः इद् इत्यस्य स्थाने अन् इति आदेशः सो इद् पार्ट् आफ् इट् इस् रिप्लेस्ड् बै अन् सो यू हेव् अना एण्ड् आ इदोय् पुंसि इत्यस्मात् इदः इति अनुवर्तते सो द इद् इस् रिप्लेस्ड् बै अन् यू हेव् अना आ आङितापः इत्यनेन एत्वम् आङि ओसि च अत्परे आङि ओसि च एत्वं भवति अने आ इति भवति केशोयवायावः इत्यनेन अयादेशे अनया इति रूपम् तृतीया द्विवचने इदा भ्याम् इत्यस्ति इदानीं किं भवति खलि लोपः Whenever it is followed by an ajadi pratyaya, you have anapyakaha, anadesha. If it is a halari pratyaya, hali lopaha ityanena, idu ityasya lopaha bhavati, akaraha eva shishyata. So the idu is deleted, so you have abhyam. Anaya abhyam abhihi, ida bhihi. Punaha hali lopaha ityanena, idu ityasya lope abhihi. किं भवति ए प्रत्यये परे सम्बडि रिकलेक्ट् प्रयत् प्रक्रिया आल् नोन् सूत्र नो न्यू सूत्र अप्लै वाट् युर् लर्न् अर्लियर् Hello. What's the name? Right, exactly. So you need a syat. Sarvanamnaha syat prasvashta. So whenever there is a nit prasaya following a sarvanama, this is an abanta. So you have syat agama. Abanta sarvanamnaha parasya, itaha syat agama. Pratutehe shraswaha. So ida, apashta shraswaha. So the ap will be shortened. So you have ida, sya, A. Next. Right. Riddhireti. Ittirena. Sya e. Ittir. Anayohu. Riddhau. Syai. Ida. Syai. खलि लोपः इत्यनेन इदः लोपे अस्यै उत्तमम् अस्यै इति चतुर्थेकवचने रूपम् आभ्याम आभ्यः समानं हरिलोकः अस्याः तत्रापि ये प्रत्यये नसि प्रत्यये परे पुनः स्याट् ह्रस्वः हलिलोपः कृत्वविसर्गौ अस्याः अस्याः आभ्याम् आभ्यः पुनः अस्याः ओस् प्रत्यये परे इदा ओस् अस्ति स्वयं हलादिः नास्ति अतः अनाप्यकः इत्यनेन अनादेशे अना ओस् भवति आनि चापः आनि ओसि च एत्वम् इत्यनेन अने ओस् एषोयवायावः इत्यनेन अयादेशे अनयोस् कृत्वे विसर्जयति कृते अनयोः अस्याः अनयोः एकम् आसाम् इति साधनीयम् इदा आम् इति किं भवति Anybody would like to try other than Vasudha? And Ravichandran ji? Yes. Padmamani says, Sarvanamnaha Sutt. Ami Sarvanamnaha Sutt. Ittanena Sudhagamaha Bhavati Amaha. So, Am gets a Sutt Sakara Asdagama. So, Ida Sutt Am. स्तुति कृते प्रत्ययस्य हलादित्वात् हलिलोपः इत्यनेन इदः लोपे आसाम् अस्याः अनयोः आसाम् नेक्स्ट् वन् अस्याम् इति रूपम् स्या पाठिनो अ हलिलोपः इत्यनेन लोपे अ इति भवति स्याडागमे ह्रस्वे कृते स्या इति भवति हौ डु वि गेट् द आम् पार्ट् अस्ति प्रत्यय इस् ई सप्तमेकवचने ई प्रत्ययः इदा ई इत्यस्ति इदा इत्यत्र ह्रस्वे हलिलोपः इत्यनेन लोपे कृते अ इति भवति चाडामध्ये कृते अस्या इति जातम् ई प्रत्ययस्य आम् आदेशः कथं दट् इस् द ओन्ली स्पेशल् पार्ट् अस्ति भवति रैली सूत्र स्त्रीलिङ्ग नेराम नद्याम निधा सत्यम् सो द नी इज रिप्लेस्ड बाय आम इदा आम ये है आम स्यात् नद्यन्तात् आबन्तात् नी शब्दात् च परस्य सो यू हैव आम आदेश सो फर्स्ट वी डू द आम ततः सर्वनामस्य अर्थः स्पष्टः इत्यनेन चाडागमः आपः ह्रस्वः इद स्या आम अतः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे इद स्याम् हलिलोपः इत्यनेन लोके अस्याम् अनयोः आसु इदासु इत्युक्ते इदः लोपः हलिलोपः आसु अस्याम् अनयोः आसु इति इदं शब्दस्य रूपाणि एलिफेण्ट् अन्वादेशेतु एनाम एने एनाह एनया एनयोः अन्वादेशे रूपाणि इदं शब्देषु पुल्लिङ्गेषु दृष्टानि इमं एनम इमे एने इमाह एनाह अनेन एनेन अनयोः एनयोः पञ्चसु स्थलेषु एनादेशः भवति इदं शब्दस्यैव एन इति आदेशः अत्रापि तथैव द्वितीया विभक्तौ ता प्रत्यये ओस् प्रत्यये च परतः एनादेशः किं सूत्रम् द्वितीया टौस् रेणः द्वितीया सा ओस्सु एनः सरि इदमोन्वादेशयश् इति इत्यतः इदमः अन्वादेश इति अनुवर्तते द्वितीया टा ओस्सु एनः सो देयर इज एन एन आदेश इन द्वितीया विभक्ति ऑल थ्री फॉर्म्स ता एंड ओस् सो रूपद्वयं भवति इमाम एना इमे एने इमाह एनाह अनया एनया अनयोः एनयोः इति मकारान्ताः स्त्रीलिङ्गाः अग्रे जकारान्ताः स्त्रीलिङ्गाः ऋत्विक् दधृक् षड् आदिना सृजेः लिङ् अमागमस्य निपातितः सृजविसर्गे इति धातुः सृष्टिः सृजविसर्गे इति धातोः किन् प्रत्ययः ऋद्विग् दधृक् क्रक् इत्यस्ति सद्विगुष्ठिवंशे इति चिन्तांश इति सूत्रम् तेन किन् प्रत्ययः अम् आगमः सृज क्विन् इत्यस्ति सो तत्र अम् इति आगमः अन्त्यादकस्वरः अर्थात् ऋकारात् परत्वेन अकारः आगमः भवति निपातनात् सूत्रेणैव निपात्यते इति जकारान्तं प्रातिपदिकम् सुप्रत्यये परे सुप्रत्ययस्य लोपः क्विन् प्रत्ययस्य कुः इत्यनेन कुत्वं भवति क्विन् प्रत्ययान्तशब्दः अतः कुत्वे कृते स्रक् स्रग् अवसाने इति वैकल्पिके तत्त्वे रूपद्वयम् स्रक् स्रग् अथ अजादिषु भक्तिषु स्रजौ स्रजः स्रजं स्रजौ स्रजः स्रजा स्रग्भ्यां स्रग्भिः स्रजे स्रग्भ्यां स्रग्भ्यः स्रजः स्रग्भ्यां स्रग्भ्यः स्रजः स्रजोः स्रजां स्रजि स्रजोः स्रक्षु कुत्वे कृते स्रग् सु इति भवति खरिच इत्यनेन चर्त्वे स्रक् सु आदेशप्रत्यययोः इत्यनेन षत्वे स्रक्षि इति रूपम् ततः दकारान्ताः स्त्रीलिङ्गाः सो दट् इस् एन् एक्साम्पल् फार् दकारान्त सो दकारान्ताः क्वेश्चन् Is it different from Sridhi to Gip? Sorry. I didn't understand the question. Huh? Yeah, Kvintratesi Kuhu is an apavada for Shatva also. We studied yesterday, remember? That was the point which Balamanorama was making. That in case of Hakaranthas, Kvintratesi Kuhu overrules Khodhaha. In case of things like whatever is there, Shakarantas and Zakarantas, it overrules Rashtabhajja. Yeah. Is it? No, we don't. We do. Okay. No, come again. Okay. Salam Jishwante. We do Salam Jishwante. Salam Jishwante. Salam Jishwante is a general sutra. Tinta says that Kuhu is not an apavada for Salam Jishwante. Okay. Now that is the point which has been debated over there. Is Tinta says that Kuhu an apavada sutra for that or not? Okay. There are various ways of determining whether it's an apavada sutra or not. So, Sintate Sikuhu is not an apavada for Salam Jishwante. Salam Jishwante has a different, it's just a general sutra. So, if there is a possibility of applying it, so you can apply Salam Jishwante and then if Sintate Sikuhu applies, you can do it. But when you have, clearly have, you have Hodhaha and Sintate Sikuhu or Vastra Prajna and Sintate Sikuhu, then you have this Utsarga Apavada exception, it is always Apavada which will overrule the Utsarga. So you should see whether the two sutras have Utsarga Apavada Bhava or not. If there is no Utsarga Apavada Bhava, you apply both. Or whatever. So wherever there is a... But do we do the rest of the question? Okay. You should not. You need not. Because Quintasyasikuhu, if it is a Quintasyantam, right? Quintasyasikuhu will overrule, so you directly convert it into the Sara. Right? No, you will not do that. The Shakara, if you get, okay, let us see if there is any Kodhela. Shakara is Drishya. Yeah. Shakara, if you do Kutva for Shakara, what is the thing you will get? It is a Mahaprana. And what will you get? So, this will be will it change? Yeah, I understand. That's a very valid question. So if we are following it there, for Shakara, if you do Kutva, you should actually get Khakara. Right? Shakara is a Kharvarna and it is a Mahaprana. So, you should get Khakara. Then you apply Salam Jishwante. You should get Gakara. And you do Vavasale. You should Drug and Drug. I mean, there should be no change in form. Did you see anywhere that Rasta Prasya is applied in Drishya? I mean, that's the Vakya. So, I'll have to check this point. As far as I know, because they say very clearly that it's a, yeah. Yeah, so if it's apada, it should fill with this. So just look up Balamanorama and Tatavodhini and see if they say Sabhata has to be applied in Drishya. Because, I'll just look at it, but as far as I as we have studied so far, since Kulpratyaya Sukuhu is an apavada, you should not apply Western Pratyaya. So, overruling Western Pratyaya, you should apply Kulpratyaya Sukuhu, and then, it might be true that even though you do Western Pratyaya, it is still, you might still end up with the same form. But, since there is an Usarga Apavada Bhava, you cannot apply Western Pratyaya, is what I feel. So, I'll just look at it, So, anyway, we'll see Drishya Shabda again. So we can come back to this point and see what is going on. Okay. So now that is about Dakarantaha. Agre Dakarantaha Kriyangaha. So I hope that has got the point what we were discussing. Rakshu Raja Isetra Pinpratyase Kuhu Ittenena Kutsum Kritam. So we directly change Jakara to Jakara. There is a sutra, Rashtabhrajja, Sridhamhrajja, Yadharadabhraja, Chasham, Shaha, where the root Sridha is included, where it should get Shakara, Mundhanya Shakara as Antaresha, Jalipatante. The rules are the same. Okay. So there is a question, should we, and that sutra occurs earlier in the Tripadi, before Pinpratyase Kuhu. So the question was, should we first apply Rastab Shastra and then do Jalan Jashonte, which is you will get up with Pradu and then do Kutva, or do we directly do Kutva? So my answer was, Pinpratyase Kuhu is an apavada to Rastab Shastra, so we don't apply Rastab Shastra, we directly apply Pinpratyase Kuhu. So Kavichandra ji has a doubt where in another similar form, Rastab Shastra has been applied. And then Pinpratyase Kuhu has been applied. So, there is a conflict of things. We will clarify this in the next class. Dakarantaha Srilingaha Yad Shabda. You have a whole list of Tadanavas. Yad, Tadu, Yad, Etad. All four with a Dakaranta. So they have different forms in Pullinga, Srilinga, as Mahamsakalinga. Syad Shabdaha, Sadadhyatvam, Ta. Syad Su Isyasthi, Vibhaktam Parataha, Sadadhinamaha, Isyarena, Akaraha, Antade. So, Hasya, A, Su, Atogune, Isyarena, Pararute, Hya, Su, Ajadhyatashta. Akarantattvam sampannam ityataha tap pratyayah kriyate hya a tu atat savarne dithaha ityanena savarna dithe hya tu. So the form till here sarvasu vibhaktishu samana pratyaya. So the steps are common in all vibhaktis. You have atva, tap and savarna dithaha. So the patipadika in effect becomes hya. Just like in Kim it became Ka, Idam Nityatra Ida iti Pratipadika, or Pratipya iti Akarantam. So the forms will be like Sarva with one exception. Prathama Ekavachane Sados Sastavanam Teyohu Ityanena Sakaradesh. Akarasthane Sakaradesh. This is what we see in Saha, Syaha everywhere. So, the sakara of etat and tada is replaced by sakara. So, have tya and su, kalyadina sukratyasena, okay? Tya, sukratyasena, tya, tye, tyaha, tada shabdasyatu, sa, te, taha. Tya, tye, tyaha, sa, te, taha, esha, ete, taha. So, the form sarvavad. All the other forms will be like sarva. You have you know the forms of Tad Shabda, which is very familiar, so I need not say. Evam, Tad, Yad, Etat. So all three Dakarantas will be declined in the same way. Sarvatra Tadadinamaha Ityatvam ताप प्रत्ययः ततः रूपात् सकारान्तः स्त्रीलिङ्गः वाच् शब्दः वाच् इति सकारान्त एण्ड् स्त्रीलिङ्ग वाक् शब्दस्य अर्थः ज्ञायते एव वाक् वाग् वाचौ वाचः किं सूत्रम् अत्रापि कुत्वमस्ति सकारः अस्ति तस्य कुत्वं जस्त्वं वैकल्पिकं तत्त्वं वाचौ वाचः किं सूत्रम् चोक्कुः सवर्गः अस्ति ते सवर्गस्य कुत्वं भवति वाच् इस् नाट् अत्यन्तत्वं चोक्कुः धनिपदान्ते च सवर्गस्य सवर्गः आदेशः गच्छ इस् रिप्लेस् बै क देन् यु अप्लै छलां जिषोति बिकास् वाग् एण्ड् अगेन् वावसाने सः वाक् वाग् वाचौ वाचः वाचं वाचौ वाचः वाचा वाग्भ्यां तत्रापि दृष्टं वाग्भिः वाचे वाग्भ्यां वाग्भ्यः वाचः वाग्भ्यां वाग्भ्यः वाचः वाचोः वाचां वाचि वाचोः वाक्षु सत्त्व एण्ड् आदेशप्रत्ययोः इत्यनेन सत्त्व अग्रे पकारान्ताः स्त्रीलिङ्गाः पकारान्तः स्त्रीलिङ्गः अप् शब्दः अप् शब्दः जलम् इत्यर्थः अत्र विशेषः अयं शब्दः नित्यं बहुवचनात् देर् इस् नो एकवचन और् द्विवचन इट् इस् आल्वेस् प्लूरल् अप्त्रम् इति दीर्घः अप् शब्दात् जस् प्रत्ययः बहुवचनत्वात् जस् सर्वनामस्थानसमयः अस्ति सर्वनामस्थाने परे अप्रन्दृत्शास्त्रीणां So all rakarantas except up. The up in the beginning is this. Pakarantas, Srilinga, up shabda. So there is a dirgha, padha dirgha. So you have aap, as, srutve visarge. So it is aapaha, shirupam, prathama, bahuvachane. Shasitu apaha. Shasprateya sarvanamasthana samyanasti. Aptantis iti sutrantu sarvanamasthane pare eva bhavati. Shati apah. So, there is a difference between jas and shas because of apranthus. Agre apu dhis, especially dhritiya bahuvachane. Tata sutram asti apo bhi. Apah bhi. Iti padadrayam. Ata upasarga taha iti taha. Taha iti ava. So, ap shabdusya pataraha antadesha bahuvati. Bhi. भकारादौ प्रत्यये परे अपः तकारः स्यात् भादौ प्रत्यये परे हलोत्यस्य इत्यनेन अन्तादेशः अकारस्य स्थाने तकारः सो यु हाव् अप् धिस् अत् धिस् धनां यशोन्त इत्यनेन दृश्यते अद्भिस् सूत्रे विसर्गे कृते अद्भिः आपः अपः अद्भिः अद्भ्यः अद्भ्यः चतुर्थी बहुवचने पञ्चमी बहुवचने च अपोभि इत्यनेनैव सकारादेशः अद्भ्यः अपाम् अप् आम् किमपि कार्यं नास्ति विशिष्टम् अपाम् अप् सु अप्लै फलां दृश्यन्ते एण्ड् अप्लै खरि च अप् सु एण्ड् अप् सु दट् इस् अबौट् सकारान्त स्त्रीलिङ्ग अग्रे सकारान्ताः स्त्रीलिङ्गाः विल् सी दी इन् द नेक्स्ट् क्लास् एनाक्षमां नायम् अधिगम्य महेश्वरात्म व्याकरणं दत्तं तस्मै पाणिनये नमः पुनित्रयं नमस्कृत्य तदुत्तीकरिहाकृत वैयाकरणसिद्धान्तकौमुदीयं दृश्यते क्रिस्टन् Mm. Mm. वाचिका विद्ये सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः in all vrittis it says sarvanam. Pumbadbhava is a concept which is really encountered in samasa. Say you have dirgha rajjuhu, it becomes dirgha rajjuhu. In the feminine form it takes on the masculine form. Generally, I mean not just samasa, it is seen in vritti, but it generally starts with samasa. So, sarvanam naha vritti matre pumbadbhavaha. In all vrittis, Sarvanama Padas will get Pumbadbhava, that is a Srilinga word, it becomes like the Pullinga word. So it raises the question if it will, Pumbadbhava will occur here. Okay. That is his question. Do we have to do Pumbadbhava here also? That's the question. I don't know why he raises it, because there is no Vritti here. Tadhita vritti, right. Tadhita vritto bhavativa prashnaha. So shabda swarupa parataya. Here it is, the intention is not the sarvanamatva of it. It is just he is indicating a word. Shabda swarupa parataya, it is a word, gaunataya. Here, the word sarva is not intended as a sarvanama. It is, the meaning of the word sarva in sarvavati is shabda swarupa. The word of that, it is gauna. That is the actual meaning of sarva as a sarvanama is not implied here. It is, does not mean like all. It means like the word sarva. The meaning of sarva is shabda swarupa. So because of this, it does not have sarvanamatva. So remember, sarvanamatvam kada bhavati. Ityukte yatra sarvesham yani namani sarvanamani. Where there is this, the property of sarvanamatva. That is, it can refer to anybody. Sarvesham namani sarvanamani. Iti yatra bhavati tatraiva sarvanamatvam. Atra tu tasya sarvanamatvam eva nasti. Shabda swarupa parapaya. Samyopasarjani bhutasu na sarvadayaha. The actual meaning of the word sarva here is gauna or upasarjana. Therefore there is no sarvanamatva and there is no pumbadbhava. Sarvavati itseva. Any other questions? Okay, so see next class, next Monday, 5 o'clock. Dhanyavaadam.